राम राम। दश श्लोकी स्तुतिः। साम्बो नः कुल दैवतम् पशुपते साम्ब त्वदीया वयम् शाम्बम् स्तौमि सुरासुरोरगगणाः साम्बेन सन्तारिताः। साम्बायास्तु नमो मया विरचितम् साम्बात् परम् नो भजे साम्बस्यानुचरोऽस्म्यहम् मम रतिः साम्बे परब्रह्मणि। विष्ण्वाद्याश्च पुरत्रयम् सुरगणा जेतुम् न शक्ता स्वयम् यम् शम्भुम् भगवन् वयम् तु पशवोऽस्माकम् त्वमेवेश्वरः। स्वस्वस्थान नियोजिताः सुमनसः स्वस्था बभूवुस्ततः तस्मिन् मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। शोणीयस्य रथो रथाङ्गयुगलम् चन्द्रार्कबिम्बद्वयम् कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः। तूणीरो जलधिर्हया श्रुतिचयो मौर्वी भुजङ्गाधिपः तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। गोविन्दात् अधिकम् न दैवतमिति प्रोचार्य हस्तावुभौ उद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां वरः। यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभवत् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। येनापादितमङ्गजाङ्गभसितम् दिव्याङ्गरागैः समम् येन स्वीकृतमब्जसम्भव शिरः सौवर्णपात्रैः समम् येनाङ्गीकृतमच्युतस्य नयनम् पूजारविन्दैः समम् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। आकाशश्चिकुरायते दश दिशा भोगो दुकूलायते शीतांशुः प्रसवायते स्थिरतरानन्दस्वरूपायते। वेदान्तो निलयायते सुविनयो यस्य स्वभावायते तस्मिन्मे हृदयम् सुखेन रमताम् ताम्बे परब्रह्मणि। विष्णुर्यस्य सहस्रनामनियमाद् अम्भोरुहाण्यर्चयन् एको नोपचितेषु नेत्रकमलम् नैजम् पदाब्जद्वये सम्पूज्यासुरसंहतिम् विदलयम् स्त्रैलोक्यपालो भवत् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। शौरिम् सत्यगिरम् वराहवपुषम् पादाम्बुजादर्शने चक्रेयोदयया समस्तजगताम् नाथम् शिरोदर्शने। मिथ्यावाचमपूज्यमेव सततम् हंसस्वरूपम् विधिम् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। यस्यासन्धरणी जलाग्निपवनव्योमार्कचन्द्रादयो विख्यातास्तनवोष्टधा परिणता नान्यत्ततो वर्तते। ओङ्कारार्थविवेचनी श्रुतिरियम् चाचष्टतुर्यम् शिवम् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा सम्भूताज्जलधेर्विषात्परिभवम् प्राप्तास्तदा सत्वरम् तानार्तान् शरणागतानिति सुरान् यो रक्षदर्धक्षणात् तस्मिन्मे हृदयम् सुखेन रमताम् साम्बे परब्रह्मणि। राम राम।